इति त्वयि रसाकुलं रमितवल्लभे वल्लवाः कदापि पुरम् अम्बिकाकमितुः अम्बिकाकानने समेत्य भवता समं निशिनिषेव्य दिव्योत्सवं सुखं सुषुपुः अग्रसीद्व्रजपम् उग्रनागस्तदा समुन्मुखमथोल्मुखैः अभिहतेऽपि तस्मिन् बलात् अमुञ्चति भवत्पदे न्यपति पाहि पाहीति तैः तदा खलु पदा भवान् समुपगम्य पस्पर्शतं बभौ स च निजां तनुं समुपसाद्य वैद्याधरीं सुदर्शनधरप्रभो ननु सुदर्शनाख्योऽस्म्यहं मुनीन् क्वचिदपाहसं त इह मां व्यधुः वाहसं भवत्पदसमर्पणात् अमलतां गतोऽस्मीत्यसौ स्तुवन्निजपदं ययौ व्रजपदं च गोपामुदा कदापि खलु सीरिणा विहरति त्वयि स्त्रीजनैः जहारधनदानुगः सखिल शङ्खचूडो बलाः अतिद्रुतमनुद्रुतः तमथ मुक्तनारीजनं रुरोजिथ शिरोमणिं हलभृते च तस्या ददाः दिनेषु च सुहृज्जनैः सह वनेषु लीलापरं मनोभव मनोहरं रसितवेणुनादामृतं भवन्तम् अमरीदृशाम् अमृतपारणादायिनं विचिन्त्य किमु नालपन् विरहतापिताः गोपिकाः भोजराजभृतकस्त्वथ कश्चित् कष्टदुष्टपथदृष्टिररिष्टः निष्ठुराकृतिः अपष्ठुनिनादस्तिष्ठते स्म भवते वृषरूपी शाक्वरोथ जगती धृतिहारी मूर्तिमेष बृहतीं प्रदधानः पङ्क्तिमाशु परिघूर्ण्यपशूनां छन्दसां निधिम् अवापभवन्तं तुङ्गशृङ्गमुखमाश्वभियन्तं सङ्गृहय्यरभसात् अभियन्तं भद्ररूपमपि दैत्यमभद्रं मर्दयन् अमदयस्सुरलोकं चित्रमद्य भगवन् वृषघातात् सुस्थिराजनि वृषस्थितिरुर्व्यां वर्धते च वृषचेतसि भूयान्मोदः इत्यभिनुतोऽसि सुरैस्त्वम् औक्षकानि परिधावत दूरं वीक्षताम् अयमिहोक्षविभेदी इत्थमात्तहसितैः सह गोपैः गेहगस्त्वमववातपुरेशा ॐ तत्सदिति श्रीमन्नारायणीये सप्ततितमं दशकं समाप्तं श्रीहरये नमः रमा रमण गोविन्दा गोविन्दा श्रीकृष्णार्पणमस्तु।